आत्वा महन्तु हरजो वृषणम् सोमपीतये इन्द्रत्वा सूरचक्षसः इमाधानाभृदस्नु भो हरी इवोपवक्षतः इन्द्रम् सुखत मेरसे इन्द्रम् प्रातर्ह वामह इन्द्रम् प्रयत्यध्वरे इन्द्रम् सोमस्य पीतये उपनस्तु तमागहि हरिभिन्द्रकेशिभिः श्रुते हि त्वाहवामहे सेवन्नस्तो ममागह्युपेतम् सवनम् सुतम् गौरो न त्रेषितः पीब इमे सोमास इन्द्रवस्तुदासो अधिबर्हिषि ता इन्द्रसहसे पिब अयम् ते स्तोमो अग्रियो हृदिस्कृतस्तु सन्तमः अथा सोमम् सुतम् पीब विश्वमित्सवनम् सुतमिन्द्रो वदाय गच्छति वृत्रः सोमपीतये सेमन्नः काममाप्रेण गोभिरश्वैश्वतक्रतो स्तवामत्वा स्वाध्याः